क्षम्यतां महोदय.
अथवा सह न भवतु, सह न भुनक्तु.
अन्यद् येन दौता गिरः पुंसां विमलैः स्यद्धवारिभिः तमच्छाज्ञानजं भिन्नं तस्मै पाणिनये नमः.
धन्यवादः भगिनि. सर्वेभ्यो नमः. सर्वेषां स्वागतम् अस्मिन् वर्गे. अस्माकं प्रवर्तमानः विषयः अस्ति तत्र सर्वनामशब्दाः. अस्मिन् विषये वयं पूर्वं तत्र पुल्लिङ्गरूपाणि अपि स्त्री नपुंसकलिङ्गरूपाणि दृष्टवन्तः. तत्र सर्वनामशब्दः इत्युक्ते तत्र इदम् इति शब्दः, तत्र अयम् इति प्रथमविभक्तौ पुल्लिङ्गे भवति, इदम् इति तत्र नपुंसकलिङ्गे भवति. इदानीं तत्र अस्मिन् अध्याये नवम अध्यायः अस्मिन् अध्याये तत्र स्त्रीलिङ्गरूपाणि भवन्ति. अतः तत्र गतवर्गे एतं पाठम् एकवारं पठितवन्तः, किन्तु पुनः ताम् एव पठित्वा तत्र तथा अग्रे गच्छामः. अपि तत्र अस्मिन् पाठे श्लोकद्वयमस्ति. अपि तत्र पूर्वस्मिन् पाठे अपि तत्र अन्ते एकः श्लोकः आसीत्, तदपि तस्मिन् विषये अपि किमपि न उक्तवन्तः. अतः गृहपाठः आसीत् तत्र श्लोकान् अपि पठतु एकवारम् इति. अतः तत्र श्लोकानां विषये अपि किञ्चित् चर्चां कृत्वा अग्रे सरामः तर्हि. अस्तु, अतः तत्र पुटसङ्ख्या अस्ति 55. अस्तु तर्हि तत्र गीताञ्जलि भगिनी आरम्भं करोति वा?
आं महोदय, कुत्र पठामि महोदय?
पुटसङ्ख्या 55 भगिनी.
अस्तु,
पञ्चपञ्चाशत्.
अस्तु महोदय, एतं पठाम् उच्चैः एतं पाठम् उच्चैः पठत सर्वनामशब्दाः स्त्रीलिङ्गे. भगवद्गीतायां भगवान् श्रीकृष्णः श्रद्धां सम्यक् विवृतवान् अस्ति. इयं च सात्विकी, राजसी, तामसी इति त्रिविधा. इमां सात्विकीं श्रद्धाम् आपन्नाः जनाः देवान् जयन्ते देवान् यजन्ते क्षम्यता महोदय. अस्याः राजस्याः श्रद्धायाः उपासकाः यक्षरक्षांसि भजन्ते. तामस्याः अस्याः आराधकाः प्रेतान् भूतगणान् च सेवन्ते.
हा, समीचीनं भगिनि. हा, तत्र एकवारं पठित्वा पुनः आगत्य परिशीलयामः. अस्तु तर्हि तत्र हा, अस्तु तर्हि अग्रे तत्र रविमहोदय अग्रे पठति वा? लक्ष्मी भगिनि नमस्कारः भगिनि. नमस्कारः भगिनि.
क्षम्यता, अद्य विलम्बेन आगतवती.
चिन्ता मास्तु भगिनि, पुटसङ्ख्या अस्ति 55.
अस्तु महोदय.
रवि महोदय, तत्र आहारविषये अपि इति ततः.
आहारविषये अपि तत्र इयमेव रीतिः. तस्याः सात्विक्याः श्रद्धायाः उपासकाः उत्साहवर्धकं चित्तप्रसादकरं प्रीतिकरम् आहारं सेवन्ते. राजस्या तस्या युक्ता
तया युक्ताः
दुःखशोकप्रदान् कट्वल
तत्र कटु अम्ल कटु अम्ल कटु अम्ल
कटु कटु अम्ल लवण
अत्युष्णान्
अत्युष्णान् आहारान् सेवन्ते. एतस्य एतया तामस्या श्रद्धया युक्ताश्च यातयामे गतरसे दुर्गन्धयुक्ते च आहारे प्रीतिमन्तः भवन्ति.
अग्रिमवाक्यमपि पठतु महोदय.
आसां श्रद्धानां विभागेन वयं मनुष्याणां स्वभावं सम्यक् अवज्ञातुं शक्नुमः.
समीचीनं महोदय. अस्तु, अग्रे रघुपतिमहोदय.
तपसि अपि अस्याः श्रद्धायाः त्रैविध्यम् अस्ति. तया परया श्रद्धया युक्ताः अफलाकाङ्क्षिणः भवन्ति, ते सात्विकाः इत्युच्यन्ते. द्वितीयायाम् अस्यां राजसश्रद्धायाम् अन्तर्भूताः जनाः सत्कारमानपूजार्थं तपः आचरन्ति. तामसीं श्रद्धाम् उपाश्रिताः तु तमोरूपया आत्मपीडया अन्येषां नाशार्थं तपः कुर्वन्ति. एवम् एषा श्रद्धा त्रिविधा वर्तते. तद्विषये कृष्णस्य उक्तिः एषा त्रिविधा भवति.
अस्तु महोदय, तत्र किं कुर्मः, तत्र प्रथमतया पाठं पठामः, तदनन्तरं तत्र श्लोकान् परिशीलयामः. अस्तु, धन्यवादः महोदय. अस्तु, अतः तत्र सूर्यकुमारी भगिनी किञ्चित् आरम्भतः किञ्चित् विवृणोति वा भगिनि.
महोदय, भगवद्गीतायां भगवान् श्रीकृष्णः श्रद्धां सम्यक् विकृतवान् विवृतवान् अस्ति.
अतः तत्र
भगवद्गीतायां भगवान् श्रीकृष्णः श्रद्धां सम्यक् विवृतान् अस्ति.
भगवद्गीतायां विभक्तिका तत्र
भगवद्गीतायां सप्तमी
एकवचनं. समीचीनम्. अस्तु, समीचीनम्. अतः तत्र भगवान् श्रीकृष्णः कः सम्बन्धः तयोः मध्ये?
भगवान् श्रीकृष्णः विशेषणविशेषसम्बन्धः.
विशेषभावः, समीचीनम्. अतः भगवान् श्रीकृष्णः किम् अस्ति तत्र, किं कृतवान् अस्ति?
श्रद्धां सम्यक् विवृतवान्.
विवृतवान्, सः किं विवृतवान्? भगवान्
श्रद्धां
विवृतवान्. कथं विवृतवान् श्रद्धां? कथं विवृतवान्? सम्यक् विवृतवान्. सम्यक् विवृतवान्. किं विवृतवान्? श्रद्धां विवृतवान्. कथं विवृतवान्? सम्यक् विवृतवान्.
अव्ययं महोदय.
हा, तत्र सम्यक् इति विवृतवान्, सम्यक् इति अव्ययम् इति चिन्तयामः.
विवृतवान् अस्ति,
सम्यक् विवृतवान् अस्ति. हा, अग्रे
इयं च.
इयम् इत्युक्ते तत्र विभक्तिका इयं
प्रथम एकवचनं.
हा, प्रातिपदिकम्
इदम्.
हा, इदं शब्दस्य स्त्रीलिङ्गप्रथमवचनरूपम् इयम्. इयम् इयम् इति अस्ति. इयम् इत्युक्ते अत्र
श्रद्धा.
इयम् इत्युक्ते श्रद्धा. इयं श्रद्धा
सात्विकी राजसी तामसी इति त्रिविधा अन्ये सर्वाणि पदानि स्त्रीलिङ्गे अस्ति.
कस्याः त्रि तत्र कस्याः श्रद्धायाः त्रैविध्यम् अस्ति? श्रद्धायाः त्रैविध्यम् अस्ति अथवा विधा त्रिविधा अस्ति. तत्र ताः काः?
सात्विकी राजसी.
सात्विकी श्रद्धा एका,
राजसी श्रद्धा एका, तामसी श्रद्धा एका.
हा इति अस्तु समीचीनं
त्रिविधा
द्विधा हा अस्तु अतः अग्रे इमाम् इति
इमां सात्विकीं श्रद्धाम् आपन्नाः इमां सात्विकीं श्रद्धां
अस्तु तत्र द्वितीयभागं प्रथमतया पठामः तत्र आपन्नाः जनाः
ओ अस्याः
आपन्नाः जनाः किं कुर्वन्ति
देवान् यजन्ते
अत्र जनाः देवान् यजन्ते तत्र क्रियापदं किं
यजन्ते
कर्तृपदं
जनाः
हा जनाः यजन्ते कं यजन्ते अथवा कान् यजन्ते
देवान्
देवान् यजन्ते देवान् कर्मपदं जनाः देवान् यजन्ते कीदृशाः जनाः
इमां सात्विकीं श्रद्धां
न तत् तत् दीर्घमस्ति प्रथमतया एकमेव पदं स्वीकरोतु तत्र न न जनाः इति अस्ति जनाः कीदृशाः आपन्नाः जनाः आपन्नाः इत्युक्ते तत्र युक्ताः तेषां किमपि अस्ति तेषां किमपि अस्ति आपन्नाः इत्युक्ते तत्र तेषां किमपि अस्ति किमस्ति तेषां तत्र श्रद्धाम् आपन्नाः श्रद्धाम् आपन्नाः इत्युक्ते श्रद्धां प्राप्तवन्तः ते सर्वे श्रद्धा तेषु अस्ति तेषु अस्ति तेषु
जनैः
जनेषु
जनेषु
श्रद्धा अस्ति तत्र श्रद्धाम् आपन्नाः जनाः तत्र श्रद्धाम् इति विभक्ति का
श्रद्धां तृतीय
हा तत्र हा आपन्नाः इति स्थाने तत्र प्राप्तवन्तः जनाः प्राप्तवन्ताः न प्राप्तवन्तः जनाः इति चिन्तयतु प्राप्तवन्तः तत्र तादृशी श्रद्धा तेषाम् अस्ति अतः श्रद्धां प्राप्तवान् अथवा श्रद्धां प्राप्तवती कर्मपदं भवति खलु अतः श्रद्धाम् इति द्वितीयविभक्तिरूपम् अस्ति अत्र श्रद्धाम् इति इदानीं तत्र कीदृशीं श्रद्धां प्राप्तवन्तः ते
सात्विकीं
श्रद्धां अतः एव इमां सात्विकीं श्रद्धां प्राप्तवन्तः जनाः
इमां सात्विकीं विशेषण
हा भवति श्रद्धाम् इति पदस्य समीचीनं भगिनि हा पुनः जनाः इति पदस्य विशेषणमस्ति आपन्नाः इति तादृशाः जनाः कान् यजन्ते कान् यजन्ते
देवान्
देवान् यजन्ते समीचीनं हा अस्तु अग्रे
अस्याः राजस्याः श्रद्धायाः
इदानीं श्रद्धा इति अस्ति श्रद्धायाः इति विभक्ति का तत्र
श्रद्धा श्रद्धायाः बहुवचनं प्रथम बहुवचनं
न श्रद्धा प्रातिपदिकं किं
श्रद्धा
क्षम्यतां
महोदय षष्ठी षष्ठी एकवचनं
हा समीचीनं भगिनि हा तत्र हलन्तपदानां पठनं भवति चेत् किं भवति अजन्तपदानां विभक्तिरूपाणि अन्यत्र गच्छन्ति हा अतः चिन्ता मास्तु अतः श्रद्धायाः इति षष्ठी एकवचनं समीचीनम्
एकवचनं
हा श्रद्धायाः उपासकाः तस्य पूजां कुर्वन्ति तत्र अथवा तत्र उपासकाः तत्र पूजाम् इति स्वीकुर्मः तत्र श्रद्धायाः उपासकाः श्रद्धां तादृशश्रद्धां पूजन्ति अथवा हा इति अथवा तस्य उपासनं कुर्वन्ति राजस्याः श्रद्धायाः तत्र राजसी इति कीदृशपदं तत्र
स्त्रीलिङ्गं
पदपरिचयं करोतु राजसी इति पदस्य
ईकारान्तस्त्रीलिङ्गपदम्
राजसी नदीवत् अतः राजस्याः समीचीनं भगिनि. श्रद्धायाः उपासकाः किं कुर्वन्ति ते?
यक्षरक्षांसि भजन्ते.
तत्र गतवर्गे किञ्चित् क्लेशः आसीत् अतः अहं किञ्चित् दृष्टवान्. तत्र एषः तत्र यदि वयं तत्र भगवद्गीतायाः श्लोकः तत्र सप्तदश द्वितीय अपि सप्तदश तृतीयश्लोकः अधोभागे दत्तमस्ति, किन्तु तस्य अग्रिमश्लोकः चतुर्थश्लोकः सप्तदश अध्याये तत्र यजन्ते सात्विका देवान् यक्षरक्षांसि राजसाः इति अस्ति. तत्र किं दत्तमस्ति इत्युक्ते तत्र यक्ष इति जानीमः खलु, यक्षान् यक्षः यक्षान् अपि तत्र रक्षस् इति नपुंसकलिङ्गपदम् अस्ति. रक्षस् इत्युक्ते तत्र राक्षसः इति पर्यायपदम्, किन्तु तत्र रक्षस् इति किं भवति? रक्षस् सकारान्तपदं, मनः मनसि मनांसि इव, अतः रक्षांसि रक्षः रक्षसि रक्षांसि समस्तपदम् अस्ति. अतः तत्र रक्ष मनः मनः मनसि मनांसि रक्षः रक्षसि
रक्षांसि
रक्षांसि, अतः यक्षरक्ष रक्षांसि इति भवति. बहुवचनम् अस्ति किन्तु तत्र विभक्ति का? अत्र
यक्षरक्षांसि प्रथमा बहुवचनं
इति भवितुम् अर्हति, किन्तु तत्र क्रियापदं किम् अस्ति?
भजन्ते.
भजन्ते के? भजन्ते
यक्षरक्षांसि.
तत्र अन्यत् पदम् अस्ति वा प्रथमविभक्तौ?
यक्षरक्षांसि भजन्ते.
वाक्यं परिशील्य, अस्याः राजस्याः श्रद्धायाः
उपासकाः उपासकाः भजन्ते.
उपासकाः भजन्ते. उपासकाः किम् अथवा कानि भजन्ते?
यक्षरक्षांसि
यक्षरक्षांसि भजन्ते. तत्र कीदृशाः उपासकाः?
यक्षरक्षांसि बहुवचन द्वितीयविभक्ति महोदय.
सत्यं सत्यं भगिनि, कर्मपदं भजन्ते. भजन्ते इति नपुंसकलिङ्गे अस्ति इति कृत्वा तत्र समानरूपं तावदेव. अतः तत्र क्लेशः, यक्षरक्षांसि प्रथमाविभक्तौ द्वितीयविभक्तौ समानं, किन्तु अत्र कर्मपदम् इति कृत्वा
द्वितीयविभक्ति.
तत्र प्रथमविध श्रद्धायाः उपासकाः तत्र आपन्नाः जनाः इत्युक्ते उपासकाः ते देवान् यजन्ते अथवा भजन्ते, किन्तु इदानीं तत्र राजस्याः श्रद्धायाः उपासकाः यक्षरक्षांसि भजन्ते. इदानीं तृतीयविधं तत्र तामस्याः
अस्याः आराधकाः प्रेतान् भूतगणान् च सेवन्ते.
आराधकाः इत्युक्ते तत्र उपासकाः अथवा
तामस्याः
श्रद्धायाः उपासकाः अथवा
आराधकाः प्रेतान् भूतगणान् च सेवन्ते.
सेवन्ते इति क्रियापदं, कर्तृपदं किं?
भूत
के सेवन्ते?
के सेवन्ते? आराधकाः.
आराधकाः सेवन्ते. कान् सेवन्ते?
प्रेतान् भूतगणान्.
तत्र जन तत्र सात्विक्याः श्रद्धायाः तत्र तादृश आपन्नाः जनाः देवान्
यजन्ति
जनाः तत्र रक्षांसि
भजन्ते
भजन्ते. इदानीं तृतीयविध तत्र जनाः
तामस्याः
कान् भजन्ते अथवा सेवन्ते
प्रेतान्
भूतगणान् सेवन्ते इति. समीचीनं भगिनि, अस्तु धन्यवादः. शुभदा भगिनी, नमस्कारः भगिनी. पञ्चपञ्चाशत् 55
अस्तु महोदय, धन्यवादः.
अस्तु इदानीं तत्र लक्ष्मी भगिनी, तत्र अत्र इमां सात्विकी श्रद्धामापन्नाः जनाः देवान् यजन्ते इति वाक्यत्रयम् अस्ति खलु भगिनी? अत्र एतत् कर्तुं शक्नोति वा? तत्र सर्वत्र आराधकाः सेवन्ते इति रूपं स्वीकरोतु. तृतीयवाक्यम् अस्ति खलु, तामस्याः अस्याः आराधकाः प्रेतान् भूतगणान् च सेवन्ते. तादृशरूपमेव प्रथम अथवा अपि द्वितीयवाक्यं तादृशरूपे स्थापयतु.
अस्तु महोदय. इमां सात्विकीं श्रद्धाम्
आपन्नाः जनाः देवान् यजन्ते. आपन्नाः जनाः देवान् यजन्ते.
सात्विक्याः श्रद्धायाः आराधकाः जनाः
कान् सेवन्ते? देवान् सेवन्ते. समीचीनं भगिनि. इदानीं तत्र द्वितीयविध
अस्याः राजस्याः श्रद्धायाः आराधकाः वृक्षरक्षांसि सेवन्ते.
सेवन्ते इति. समीचीनं भगिनि, तावदेव. अस्तु, अतः तत्र एकः एव अर्थः, किन्तु तत्रापि त्रैविध्यं तत्र किं केवलं प्रदर्शितम् अस्ति. तत्र भजन्ते यजन्ते वा अथवा सेवन्ते इति रूपत्रयम् अस्ति, किन्तु अर्थः समानः. अस्तु, अग्रे किञ्चित् पठति वा भगिनि, लक्ष्मी भगिनि?
अस्तु महोदय. आहारविषयेपि तत्र इयमेव रीतिः. तस्याः सात्विक्याः श्रद्धायाः उपासकाः उत्साहवर्धकं चित्तप्रसादकरं प्रीतिकरम् आहारं सेवन्ते.
एकमेकं वाक्यं स्वीकृत्य वदतु भगिनि.
आहारविषयेपि तत्र इयमेव रीतिः. इयं रीतिः, रीतिः स्त्रीलिङ्गपदम् अतः इयं रीतिः.
इयमेव रीतिः,
इयमेव रीतिः.
तत्र श्रद्धा इति तत्र प्रथमतया किं प्रदर्शितम् अस्ति? तत्र त्रैविध्यं कुत्र? यान् सेवन्ते, तत्र देवान् सेवन्ते, यक्षरक्षांसि सेवन्ते, प्रेतान् भूतगणान् सेवन्ते. तत्र भेदः अस्ति खलु, श्रद्धाम् अनुसृत्य भेदः अस्ति यं पूजन्ते अथवा यान् सेवन्ते इति विषये. इदानीं तत्र
आहारविषये
अपि भेदः अस्ति, त्रैविध्यम् तत्र अपि अस्ति.
तस्याः सात्विक्याः श्रद्धायाः उपासकाः आहारवर्धकम् उत्साहवर्धकं चित्तप्रसादकं प्रीतिकरम्
आहारं
चित्तप्रसादकरं प्रीतिकरम् आहारं सेवन्ते.
ते कीदृशम् आहारं सेवन्ते?
ते आहारं सेवन्ते प्रीतिकरम् आहारं सेवन्ते. प्रीतिकरं
चित्तप्रसादकरम् अपि उत्साहवर्धकम् उत्साहं वर्धयति इति कृत्वा उत्साहवर्धकम्
आहारं
सेवन्ते. ते उपासकाः सेवन्ते. तत्र तस्याः इति अस्ति, तत्र तस्याः इति स्थाने तत्र इदं शब्दस्य रूपं स्वीकुर्मश्चेत् किं भवति? अस्याः इति भवति. तस्याः इति अस्याः इति भवति. अस्तु, समीचीनं. अग्रे
राजस्या तया युक्ता
युक्ताः
दुःखशोकप्रदान् कटु कटुअम्ल लवण अत्युष्णान् लवणात्युष्णान् आहारान् सेवन्ते.
इदानीं द्वितीयविधजनाः तत्र राजस्याः श्रद्धया युक्ताः जनाः
दुःखशोकप्रदान् कटु अम्ल दुःखं जनयति दुःखप्रदान्
दुःखशोकप्रधान् दुःखं जनयति शोकान् जनयति तादृश आहारं सेवन्ते
दुःखशोकप्रधान्
अपि अन्य
कटुः कटु अम्ल प्रधान
लवण
कटु अम्ल लवण उष्ण एतान् आहारान् सेवन्ते
अति उष्णान् आहारान् सेवन्ते. तत्र किं रुचिकर बहु रुचिकर आहारान् सेवन्ते अति उष्णान् अतः तत्र किं प्रदर्शितं तत्र आहारविषये अपि तत्र भेदः अस्ति. प्रथमविद्या तत्रापि त्रैविध्यम् अस्ति अतः यान् तत्र सात्विक्याः श्रद्धायाः जनाः ये सन्ति तेषाम् आहारः भिन्नम् अपि राजक्या तत्र राजस्याः श्रद्धायाः उपासकाः ये सन्ति तेषाम् आहारमपि तत्र आहारः तत्र भिन्न तत्र अपि तद् भिन्नम् अस्ति इति. अग्रे
एतया तामस्या श्रद्धया युक्ताश्च यातयामे गदरसे दुर्गन्धयुक्युते च आहारे प्रीतिमन्तः भवन्ति. एतया तामस्या श्रद्धया युक्ताश्च
युक्ताश्च इत्युक्ते तत्र आपन्नाः अथवा तत्र तामस्या श्रद्धायाः आराधकाः
यातयामे गतरसे यामं गतं यातयामे
तत्र यातयामे गतरसे दुर्गन्धयुते
दुर्गन्धयुते च आहारे प्रीतिमन्तः भवन्ति
अतः तत्र क्रियापदं किम् अस्ति अत्र
भवन्ति
के भवन्ति केवलं सरलवाक्यं तत्र के भवन्ति प्रीतिमन्तः भवन्ति तत्र किन्तु तत्र अन्यः अपि अस्ति तत्र प्रथमविभक्तिपदम् अत्र कर्तृपदम् प्रीतिमन्तः इति तदपि प्रथमविभक्तौ अस्ति किन्तु अन्यपदमपि अस्ति तत्र
श्रद्धया युक्ताः
युक्ताः भवन्ति युक्ताः प्रीतिमन्तः भवन्ति
युक्ताः प्रीतिमन्तः भवन्ति
इति समीचीनं भगिनि. इदानीं तत्र प्रीतिमन्तः इत्युक्ते बहुवचने अस्ति युक्ताः प्रीतिमन्तः भवन्ति एकवचने रूपं किं भवति
युक्तः प्रीतिमान्
युक्तः प्रीतिमान् भवति प्रीतिमान् इत्युक्ते तत्र यस्मिन् अथवा यस्य प्रीतिः अस्ति सः प्रीतिमान् तत्र प्रीतिः अस्ति इत्युक्ते तत्र विश्वासः वा प्रीतिः वा तत्र विभक्ति अपेक्षितं का विभक्ति अपेक्षिता अस्ति तत्र
सप्तमी विभक्ति
कस्मिन् विषये प्रीतिः
आहारे
अत्र आहारे इदानीं कस्मिन् आहारे तेषां प्रीतिः अस्ति अतः तेषां ते कस्मिन् आहारे प्रीतिमन्तः सन्ति इति प्रश्नः इदानीम् उत्तरमस्ति
यातयामे यातयामि
आहारेति आहारेति विभक्तिका सप्तमी
सप्तमी विभक्ति
अतः तत्र विशेषणमपि
सप्तमी विभक्ति यातयामे गतरसे दुर्गन्धयुते
आहारे भवन्ति तत्र दुर्गन्धयुते तत्र दुर्गन्धम् अस्ति अस्मिन् आहारे अपि गतरसे गतरसे इत्युक्ते
रसः गतः
रसः गतः या आहारः अस्ति आहारः पुल्लिङ्गपदमिति मन्ये आहारः अस्ति यस्य आहारस्य रसं गतं सः आहारः गतरसः इति अतः तत्र बहुव्रीहिसमासः गतरसः आहारः यस्य आहारस्य रसः गतः अपि यातयामि तदपि तादृश अर्थे एव तत्र यातयामः आहारः इति तत्र यात इति तत्र गतम् इति अर्थे तत्र तादृश तत्र स्टेल् बहु किमपि तत्र तादृशवर्णनं भवति किन्तु तादृश आहारे ते प्रीतिमन्तः
भवन्ति
के युक्ताः
युक्ताः
किन्तु कया युक्ताः जनाः
तामस्या युक्ताः जनाः
तामस्या श्रद्धया युक्ताः
श्रद्धया युक्ताः जनाः
तादृशे आहारे प्रीतिमन्तः भवन्ति इदानीं तत्र श्रद्धया युक्ताश्च इति स्थाने तत्र यदि श्रद्धायाः उपासकाः इति कुर्मः तत्र किं भवति एतस्याः
तामस्याः श्रद्धायाः
उपासकाः
यातयामे गतरसे दुर्गन्धयुते च आहारे प्रीतिमन्तः भवन्ति
इति समीचीनं भगिनि तावदेव समीचीनम् अस्तु अग्रे गीताञ्जलि भगिनी अग्रे पठति वा
आं महोदय प्रयत्नं करोमि आसां श्रद्धानां विभागेन वयं मनुष्याणां स्वभावं सम्यक् अवज्ञातुं शक्नुमः अत्र तु कर्तृपदं वयं शक्नुमः
वयं शक्नुमः किं कर्तुं शक्नुमः
अवज्ञातुं शक्नुमः कम् अवज्ञातुं शक्नुमः इत्युक्ते
तत्र स्वभावं तत्र स्वस्य भावं केषां स्वभावं
मनुष्याणां स्वभावं मनुष्याणां तु षष्ठी बहुवचन मनुष्याणां स्वभावं तु द्वितीया
स्वभावम् अवज्ञातुं तत्र किं ज्ञातुम् इति तत्र पुनः तत्र स्वभावम् अवज्ञातुं शक्नुमः तुमुन् रूपम् अवज्ञातुं किन्तु किम् अवज्ञातुं तत्र स्वभावम् अवज्ञातुं
स्वभावं कस्य स्वभावं मनुष्याणां स्वभावम् अवज्ञातुं शक्नुमः
केन मार्गेण एतत् कर्तुं शक्नुमः
केन मार्गेण श्रद्धा केन मार्गेण विभागेन मार्गेण कस्य
तत्र श्रद्धा या अस्ति तस्याः त्रैविध्यम् अस्ति अतः त्रैविध्यं यत् अस्ति तत्र त्रिविधा अस्ति तां त्रिविधां दृष्ट्वा नाम तत्र यं तत्र कोऽपि मनुष्याः सन्ति अतः मनुष्याणां स्वभावं कीदृशम् इति प्रश्नः अस्ति चेत् किं कुर्मः, तत्र कान् यजन्ते, किं खादन्ति, तत्र आहारः कः इति तत् दृष्ट्वा मनुष्याणां स्वभावं सम्यक् अवज्ञातुं शक्नुमः.
अत्र महोदय विभागेन कं विभागेन वा
कस्य विभागः, कस्य विभागः,
कस्य विभागेन इत्युक्ते त्रिविधा
श्रद्धानां विभागेन,
त्रिविधायां श्रद्धानां, त्रिविधा
श्रद्धानां, श्रद्धानां, श्रद्धानां विभागेन,
श्रद्धानां विभागेन, श्रद्धानां विभागेन कृत्वा,
हा न न विभागं कृतमस्ति, तेन तत्र विभागं कृतमस्ति, किन्तु कोऽपि मनुष्यपुरुषः अस्ति तत्र कीदृशः इति प्रश्ने सति, तत्र तस्य श्रद्धा कीदृशी इति दृष्ट्वा तत्र तस्य स्वभावः कः इति तत्र तस्य तस्य ज्ञानं, तस्य ज्ञानं, तस्य स्वभावस्य ज्ञानं प्राप्तुं शक्नुमः इति. अस्तु, समीचीनं भगिनि. अग्रे
अग्रे
तत्र आसाम् इति अस्ति, आसाम् इति इदं पदस्य स्त्रीलिङ्गपदं, तत्र आसाम्
आसां श्रद्धानाम् इति विशेषणविशेष्य,
अतः तत्र विभक्ति अपि वचनं, विभक्ति
बहुवचनं,
षष्टि बहुवचनं, अस्याः इति षष्टि एकवचनम्,
इदं पदस्य षष्टि बहुवचन आसाम्,
हा स्त्रीलिङ्गे, समीचीनं भगिनि,
स्त्रीलिङ्गे.
अस्तु अग्रे
तपसि अपि अस्याः श्रद्धायाः त्रैविध्यम् अस्ति.
हा तत्र तपसि, तत्र तपसि अपि
तु सप्तमी वा,
सत्यं,
तपसि अपि अस्याः, अस्याः तु षष्टि एकवचन, श्रद्धायाः, अस्याः
श्रद्धायाः, श्रद्धायाः,
श्रद्धायाः त्रैविध्यम् अस्ति इत्युक्ते
तत्र श्रद्धायाः त्रैविध्यम् अस्ति अथवा श्रद्धा त्रिविधा इति, श्रद्धा त्रिविधा अथवा तस्याः त्रैविध्यम् इति रूपद्वयम् अस्ति विवरणं यदि कर्तुम् इच्छामः.
तपसि दत्तं महोदय,
तपसि इत्युक्ते तत्र प्रथमतया किम् आसीत्, भेदः कुत्र आसीत् श्रद्धायाः, तत्र प्रथमभेदः, प्रथमविषयः, प्रथमविषयः यस्मिन् भेदः प्रदर्शितः अस्ति सः कः,
सः तु ते कान् कान् यजन्ते
इति, इति समीचीनं भगिनि, हा प्रथमविषयः. इदानीं तदनन्तरं द्वितीयविषयः आसीत् आहारः, तस्य आहारः कः इति, आहारः, आहारविषये भेदः प्रदर्शितः, इदानीं तपः अपि, तस्मिन् विषये अपि, तपः इति विषये अपि भेदः वर्तते.
तपसि इति तृतीयविषयः अस्ति,
हा इति सत्यं, हा तत्र तपसि इति सप्तमी एकवचनम् इति भवत्या उक्तं, तत्र प्रथमविभक्तिरूपं किम् अस्ति,
तपः,
हा तपः सकारान्तपदं, मनः, मनसि, मनांसि, तपः, तपसि, तपांसि,
तपः, तपसि, तपांसि,
हा हलन्तपदमेव, तपसि अपि अस्याः,
अपि अस्याः श्रद्धायाः त्रैविध्यम् अस्ति. अस्तु,
अस्मिन् विषये अपि तपस् तपस् तपः इति विषये अपि त्रैविध्यं वर्तते,
वर्तते. आं महोदय,
तया
तया परया श्रद्धया युक्ताः अफलाकाङ्क्षिणः भवन्ति.
तत्र के भवन्ति,
के भवन्ति, श्रद्धया युक्ता
युक्ताः जनाः तत्र श्रद्धया युक्ताः तत्र पूर्वमपि तत्र श्रद्धाम् आपन्नाः अथवा श्रद्धायाः उपासकाः अथवा श्रद्धायाः आराधकाः अथवा श्रद्धया युक्ताः समानम्
श्रद्धया युक्ताः भवन्ति
तत्र कीदृश्या श्रद्धया युक्ताः तत्र श्रद्धा इति तत्र त्रिविधा अस्ति खलु तत्र श्रद्धायाः श्रद्धा त्रिविधा अस्ति तत्र काः काः
सात्विक्या श्रद्धया युक्ता
समीचीनं भगिनि सात्विक्या श्रद्धया युक्ताः भवन्ति तत्र कथं जानीमः तत्र सात्विक्या इति एव तत्र
समीचीनं
न न तद् दृष्ट्वा न किन्तु अन्यत् पदम् अस्ति तद् दृष्ट्वा तत्र परया इत्युक्ते
ये तस्य
परया इति विभक्तिका
तृतीया महोदय
तृतीया समीचीनं प्रथमविभक्तिरूपं
प्रथम तु परा
परा इत्युक्ते किं
ये परास्ति इत्युक्ते
परमपि अस्ति तत्र पूर्वमपि दृष्टवन्तः खलु तत्र युधिष्ठिरः अस्ति अर्जुनः अस्ति युधिष्ठिरः परः वा अर्जुनः परः वा कः परः युधिष्ठिरः परः वा अर्जुनः परः वा युधिष्ठिरः अर्जुनात् युधिष्ठिरः अर्जुनात् परः
श्रेष्ठः इत्युक्ते ज्येष्ठः
पूर्वः परः क्षम्यतां परः इति क्षम्यतां तत्र तु पूर्वः इति एव समीचीनं किन्तु क्षम्यतां मम दोषः किन्तु परः इति तत्र अत्र तु क्षम्यतां भिन्न भिन्न अर्थं भगिनि क्षम्यताम्
अर्जुनः
तत्र सत्यं महोदय तत्र पूर्वः परः इति अस्ति किन्तु तद् भिन्नम् अस्ति किन्तु अत्र परः इत्युक्ते उत्तमा इति अतः तत्र
उत्तमया श्रद्धया इत्युक्ते श्रेष्ठा
अतः सात्विक्या इति
श्रद्धया युक्ताः भवन्ति
अतः के भवन्ति तत्र कीदृशाः भवन्ति
अफलाकाङ्क्षिणः भवन्ति
तत्र
इति तु बहुवचनरूपम् अस्ति
समीचीनं भगिनि एकवचनरूपं किम् अस्ति
अफलाकाङ्क्षिणः
इति तत्र समीचीनं भगिनि इदानीं तत्र अफलाकाङ्क्षी तत्र इन् अस्ति चेत् जानीमः इनि प्रत्ययः तत्र इत्युक्ते तत्र यस्य यस्मिन् वा इति गुणः यस्य यस्मिन् वा अस्ति तत्र तु पुल्लिङ्गमेव यतोहि युक्ताः जनाः इति
अनन्तरं भवति
अत्र इनि नास्ति न महोदय
इनि अस्ति भगिनि किन्तु अफलाकाङ्क्षिन् इति अस्ति अफलाकाङ्क्षी यस्मिन् यस्मिन् तत्र यस्मिन् गुणः अथवा यस्य यस्मिन् गुणः अस्ति सः गुणी गुणिन् अत्र गुणिनः इति बहुवचने अत्र किम् अस्ति अफलाकाङ्क्षी यस्मिन् अफला आका तत्र अफलाकाङ्क्षी तत्र अफलाकाङ्क्षः तत्र फलं मास्तु फलस्य फलस्य
ये जनाः फलस्य विषये न इच्छन्ति
फलम् इच्छन्ति अथवा फलस्य विषये चिन्तनं न कुर्वन्ति तत्र किमपि इच्छा नास्ति एतादृशं फलं भवतु इति तत्र फलस्य विषये किमपि चिन्तनं यस्य नास्ति
ते जनाः अफलाकाङ्क्षिणः
भवन्ति अतः कीदृशजनाः ताः अफलाकाङ्क्षिणः भवन्ति परया श्रद्धया युक्ताः यस्य श्रद्धा प्रथमविधा अस्ति तत्र सात्विकी अस्ति उत्तमा अस्ति सः अफलाकाङ्क्षी भवति
सः अफलाकाङ्क्षी
अथवा सा अफलाकाङ्क्षिणी भवति अस्तु अग्रे ते
सात्विकाः इत्युच्यन्ते सात्विकाः इति उच्यन्ते
ते जनाः ते युक्ताः
ते इत्युक्ते ते श्रद्धया युक्ता उत्तमा श्रद्धया युक्ता ते सात्विकाः इति उच्यन्ते
समीचीनं भगिनि अस्तु समीचीनम् अस्तु अग्रिमवाक्यमपि करोतु
आं महोदय द्वितीयायाम् अस्यां राजसश्रद्धायाम् अन्तर्भूताः जनाः सत्कारमानपूजार्थं तपः आचरन्ति
तत्र क्रियापदं किम् अस्ति
आचरन्ति इत्युक्ते आचरन्ति जनाः आचरन्ति
जनाः आचरन्ति इदानीं तत्र किम् आचरन्ति कर्मपदं किम्
किम् आचरन्ति सत्कारमानपूजार्थं पूजार्थं तु नास्ति द्वितीयायां तु सप्तमी अस्यां राजस्य श्रद्धायामपि सप्तमी अन्तर्भूताः जनाः तु विशेषणविशेष्य सत्कारमानपूजार्थम् एव महोदय
न तत्र भवती किम् उक्तवती पूर्वं तत्र तपसि अपि अस्याः श्रद्धायाः तत्र तपसि कीदृशपदम्
तपसि तु सप्तमी अस्ति महोदय ओ अत्र तपः तदेव महोदय द्वितीय अत्र इत्युक्ते द्वितीय एकवचन तपः
लिङ्गं किं
नपुंसकलिङ्गं
अतः तत्र भेदः नास्ति प्रथमविभक्ति वा द्वितीयविभक्ति वा नरेश महोदय नमस्कारः महोदय
नमस्कारः महोदय क्षम्यताम्
चिन्ता मास्तु महोदय चिन्ता मास्तु पुटसङ्ख्या अस्ति 55 अस्तु अतः तत्र जनाः आचरन्ति किम्
आचरन्ति जनाः तपः आचरन्ति
तपः आचरन्ति इदानीं प्रश्नः भवति किमर्थम् आचरन्ति
किमर्थम् आचरन्ति तपः सत्कारमानपूजार्थं
तत्र सत्कार इच्छा अस्ति सत्कारस्य इच्छा अस्ति मानः इति विषये इच्छा अस्ति पूजा अहं पूजां करोमि इति तत्र तादृश इच्छा अस्ति अतः इच्छा अस्ति इति तेषां तादृशजनाः तत्र किमपि इच्छा अस्ति तत्र फलम् इच्छन्ति अतः तादृशजनाः तपम् आचरन्ति एते जनाः कीदृशजनाः तत्र
एते जनाः राजसश्रद्धायां राजसश्रद्धाया जना
श्रद्धायाम् अन्तर्भूताः जनाः तत्र श्रद्धायाम् अन्तर्भूताः अन्तर्भूतः इत्युक्ते किम्
ये ये जनाः राजश्रद्धायाम् अस्ति
सन्ति अथवा तत्र राजसी श्रद्धाया अस्ति तया श्रद्धया युक्ताः जनाः
तावदेव श्रद्धया युक्ताः जनाः
एव तावदेव ते एव अन्तर्भूताः इति अन्यरीत्या विवरणं तावदेव
ते सर्वे तत्र अन्तर्भूताः जनाः
तत्र पूर्वं तत्र राजस्याः श्रद्धायाः उपासकाः इति आसीत् खलु तदेव अस्ति अत्रापि तत्र राजस्याम् अथवा राजसश्रद्धायाम् अन्तर्भूताः जनाः इत्युक्ते तत्र राजस्याः श्रद्धायाः उपासकाः अथवा आराधकाः अथवा राजसीं श्रद्धाम् आपन्नाः जनाः इति तत्सर्वं समानार्थकः पर्याय वाचकः तत्र अन्तर्भूताः जनाः किं कुर्वन्ति पूजां तपं तपः आचरन्ति किन्तु इच्छा अस्ति तेषां
तेषाम् इच्छा अस्ति कस्य इच्छा सत्कारमान अपि पूजा
एतादृश तत्र विषयाः सन्ति तान् विषयान्
इच्छन्ति
तान् विषयान् इच्छन्ति अस्तु समीचीनं भगिनि अस्तु अग्रे तत्र धन्यवादः भगिनि अग्रे तत्र रविमहोदय किञ्चित् तत्र केवलं वाक्यत्रयम् अस्ति तत्र किञ्चित् विवृणोति वा महोदय
तामसीं श्रद्धाम् उपाश्रिताः तु तमोरूपया आत्मपीडया अन्येषां नाशार्थं तपः कुर्वन्ति
तत्र क्रियापदं किम् अस्ति
कुर्वन्ति
समीचीनं के कुर्वन्ति उपाश्रिताः कुर्वन्ति किं कुर्वन्ति इदानीं प्रश्नः
तपः कुर्वन्ति
किमर्थं कुर्वन्ति तपः
नाशार्थं
कस्य नाशार्थम् अन्येषां नाशार्थं तपः कुर्वन्ति तत्र किन्तु एतादृशाः जनाः ते के तत्र उपाश्रिताः इति अस्ति तत्र उपाश्रिताः इत्युक्ते तत्र तामसीं
श्रद्धाम्
अतः तत्र तामसी श्रद्धाम् अनुसरन्ति ये जनाः अथवा तामसीं श्रद्धां तत्र तामसीं श्रद्धाम् अथवा तामस्याः श्रद्धायाः उपासकाः सन्ति ये जनाः सन्ति ते सर्वे ते अन्येषां नाशार्थं तपः कुर्वन्ति तत्र प्रथमविधौ तत्र किम् अस्ति परया श्रद्धया युक्ताः जनाः तत्र इच्छा एव नास्ति द्वितीयविधे तत्र इच्छा अस्ति किन्तु तत् सत्विषये इच्छा अस्ति इदानीं तृतीयविधौ तत्र पीडा तत्र तेषां नाशः इति तत् भवतु इति तत्र तस्मिन् विषये इच्छा अस्ति अतः तत्र तामसीं श्रद्धाम् उपाशितः इति तत्र तमोरूपया आत्मपीडया तत्र तमोरूपया आत्मपीडया तपः कुर्वन्ति इत्युक्ते आत्मपीडया तपः कुर्वन्ति तत्र किमस्ति तत्र तृतीय अस्ति आत्मपीडया तमोरूपया तत्र कीदृश तपः कुर्वन्ति इत्युक्ते तत्र भावः कीदृशः इति तत्र आत्मपीडा
प्रेरकभावः
हा तमोरूप आत्मपीडा इति तादृशभावः अस्ति तया ते तपः कुर्वन्ति. समीचीनं महोदय, अग्रे.
एवम् एषा श्रद्धा त्रिविधा वर्तते.
तत्र एषा श्रद्धा, तत्र श्रद्धा इति यत् पदार्थः अथवा तत्र भावः, तत्र भगवान् श्रीकृष्णः तस्याः विवरणं कृतवान्. तत्र त्रैविध्यं, तस्याः श्रद्धायाः त्रैविध्यम् अस्ति. अतः तत्र त्रैविध्यं कुत्र कुत्र वयं द्रष्टुं शक्नुमः? यान् सेवन्ते इति प्रथमविषयः. द्वितीय
भोजनविषये, आहारविषये,
आहारविषये.
तृतीय तपः विषये,
तपः इति विषये वयं तत्र द्रष्टुं शक्नुमः. तत्र त्रैविध्यं द्रष्टुं शक्नुमः. त्रिविधा वर्तते. इदानीम् अग्रे तत्र
तद्विषये कृष्णस्य उक्तिः एषा.
श्रद्धाविषये, श्रद्धायाः विषये, श्रद्धा तत्र श्रद्धायाः विषये श्रीकृष्णस्य
एषः उक्तिः.
तत्र एषा इति एव उक्तिः इति स्त्रीलिङ्गे अस्ति, मतिशब्दः. अतः उक्तिः एषा अस्ति. तत्र एकवारं पठति वा महोदय प्रथमम्?
प्रथमं त्रिविधा भवति श्रद्धा देहिनां, सा स्वभावजा, सात्विकी, राजसी च एव, तामसी च इति ताम शृणु.
तत्र किञ्चित् परिशीलयामः. तत्र त्रिविधा भवति श्रद्धा, वयं दृष्टवन्तः खलु. तत्र श्रद्धा
त्रिविधा भवति, देहिनां, मनुष्याणां.
देहिनां, मनुष्याणां. सा श्रद्धा
स्वभावेन उत्पन्ना,
तस्याः उत्पत्तिः भवति. तत्र स्वभावः एव तां श्रद्धां जनयति. समीचीनं महोदय. तत्र स्वभावजा, स्वभावजा इति किमर्थमस्ति? झा इति दीर्घ आकारः. श्रद्धा कीदृशी? श्रद्धा स्वभावजा, स्वभावेन जन्या अस्ति. पुत्री, स्वभावस्य पुत्री इति अर्थे तत्र जन्या अस्ति. अतः श्रद्धा अस्ति. देहिनां, देहिनाम् इति विभक्ति का तत्र?
षष्ठी विभक्ति, बहुवचन,
बहुवचनं. प्रथमाविभक्तिरूपं देहिनाम् इति एकवचने किम् अस्ति? देहिन् इति प्रातिपदिकं. देहि, यस्य अथवा यस्मिन् देहः अस्ति. अत्र यस्य देहः अस्ति, अतः तत्र आत्मा इति तत्र चिन्तयितुं शक्नुमः. आत्मनः देहः अस्ति, अत्र देहिन् इति, तत्र देहि, अत्र देहिनां, देहिनां षष्टि बहुवचनं. तत्र षष्टि एकवचनं किं भवति?
देहिनः,
देहिनः. समीचीनं महोदय. देहि, देहिनः इति षष्टिः. इदानीं तत्र तत्र त्रिविधा भवति. इदानीं तत्र नामकरणम् अस्ति. तत्र
सात्विकी, राजसी च तामसी.
एव तामसी च इति श्रद्धां विषये, तां श्रद्धां शृणु, अग्रे विवृणोमि इति सः भगवान् श्रीकृष्णः वदति. समीचीनं महोदय, धन्यवादः. अस्तु, अग्रे. शुभदा भगिनी गतवती. शुभदा भगिनी अस्ति. अस्तु, शुभदा भगिनी अग्रिमश्लोकः पठति वा भगिनी?
आम् महोदय. सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत. श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः, यो यच्छ्रद्धः स एव सः. क्षम्यता. सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत. यस्य यस्य सत्त्वः या रूपेण अस्ति तस्य श्रद्धा तद्रूपेण भवति. सत्त्व अनुरूपेण सत्त्वम् अनुसृत्य श्रद्धा भवति इति श्रीकृष्णः वदति अर्जुनाय अर्जुनम् उद्देश्य. श्रद्धामयः अयं पुरुषः यः यत् श्रद्धः सः एव सः. यस्य श्रद्धा या रूपेण अस्ति सः पुरुषः तादृशमेव अस्ति.
हा समीचीनं भगिनि, सत्यमेव. तत्र श्रद्धा सात्विकी अस्ति चेत् सः पुरुषः अपि
सात्विकः
इति. अतः तत्र श्रद्धाम् अनुसृत्य एव तस्य पुरुषस्य अपि तत्र तत्र स्वरूप तत्र तस्य स्वरूपस्य रूपः एव सः पुरुषः अपि भवति इति. तत्र सर्वस्य श्रद्धा भवति भारत. श्रद्धामयः अयं पुरुषः यः यत् श्रद्धः सः एव सः इति. समीचीनं भगिनि, अस्तु. अतः तत्र एतदपि पठितवन्तः. अस्तु, अग्रे गच्छामः तर्हि. तत्र अग्रे तत्र इदं शब्दस्य स्त्रीलिङ्गरूपाणि दत्तानि सन्ति भगिनि, भवती एव पठति वा तत्र अग्रिमे पुटे.
आं महोदय. एतानि वाक्यानि सावधानतया उच्चैः पठत. इयं मम भगिनी. अत्र तु इयम् अत्र इदम् इति शब्दस्य इति सर्वनामस्य स्त्रीलिङ्गरूपमस्ति. प्रथमाविभक्ति एकवचने इयम् इति शब्दः इयं मम भगिनी इति अस्ति. इयं महाविद्यालये अध्यापिका अस्ति. अत्रापि तादृशमेव, इयम् अध्यापिका महाविद्यालये अस्ति इति वाक्यं. इमाम् अहम् आचार्ये इति आह्वयामि. इमाम् इति अहं पश्यन्ती अस्मि अत्र पुस्तके. तत्र द्वितीयाविभक्ति एकवचनमस्ति इमाम् इमाम् अहम् आचार्ये इति आह्वयामि. आचार्ये इति सम्बोधनं. सो अहम् इमाम्
अत्र किमर्थम् इमाम् इति अस्ति चेत् तत्र इमाम् आह्वयामि
कर्मपदम् अस्ति इत्युक्ते
इमाम् आह्वयामि
इमाम्
आचार्ये इति इमाम् आह्वयामि.
अनया लिखितानि चित्राणि सुन्दराणि सन्ति. अनया इति तृतीया विभक्ति. अनया लिखितानि चित्राणि सुन्दराणि सन्ति. अस्यै
एकः प्रश्नः. क्षम्यतां भगिनि, अत्र आचार्ये इति
सम्बोधनं आचार्ये इति सम्बोधनरूपम् अस्ति. तत्र तादृशभावः अस्ति. इयम् आचार्या इति किं भगिनि?
ओ यथा
महोदय
सत्यं महोदय सत्यम्.
अस्तु अस्तु अस्तु, क्षम्यता, धन्यवादः.
अस्यै रसगोलकम् अत्यन्तं रोचते. अस्यै इति चतुर्थीविभक्ति एकवचनं. अस्यै रोचते इति क्रियापदस्य कृते नियममस्ति. आं महोदय, रसगोलकम् इत्युक्ते मे बि अस्याः छात्राः बिभ्यति. अत्र तु अपरं नियममस्ति. अस्याः बिभ्यति इति क्रियापदस्य कृते षष्ठी विभक्ति भवति.
क्षम्यताम्
अस्याः अस्याः इति पञ्चमी विभक्ति एकवचनं बिभ्यति छात्राः बिभ्यति अस्याः प्रियनाटकम् उत्तररामचरित्रं चरितम् इति अस्याः अत्र षष्ठीविभक्ति एकवचनं अस्याः प्रियनाटकम् उत्तररामचरितम् अस्यां मम महान् आदरः मम महान् आदरः अस्यां प्राध्यापिकायाम् अस्ति
हा इति तत्र आदरः तत्र विश्वासः तत्सर्वं तत्र सप्तमी
सप्तमी विभक्ते
अतः तत्र अस्याम् इति समीचीनं समीचीनं धन्यवादः भगिनि
धन्यवादः
अस्तु रघुपतिमहोदय तत्र अस्मिन् विषये एव भवान् प्रेषितवान् तत्र तद् सर्वेषां कृते प्रेषयामि ईमेल् द्वारा किन्तु एकवारं किञ्चित् विवृणोति वा महोदय तत्र भेदः तत्र इयम् अपि एषः इति तत्र तस्मिन् विषये
लघुभेदः अस्ति इदम् इदमपि एतत् अत्र
पुल्लिङ्गं स्वीकृत्य एकवारं वदतु महोदय तत्र
यद्वस्तु समीपे अस्ति चेत् तस्य विषये इदं शब्दः भवति इतोपि अतीवसमीपतरः अस्ति चेत् एतत् एषः बालकः इति अस्ति समीपे अस्ति अत्यन्तसमीपे अस्ति यत् वयं तं
हस्ते तत्र हस्ते तत्र
आम्
स्पष्टं
कर्तुं शक्नुमः तद् भवति
तस्मिन् समये
तस्मिन् समये हा एषः इति भवति इति अस्ति एषः तादृश अपि च किञ्चित् तस्मात् किञ्चित् दूरे अस्ति चेत् इदानीम् अयम् इति भवति इति केचन वदन्ति अत्र भिन्नभिन्न अस्ति महोदय किञ्चित् अहम् एकस्मिन् पुस्तके दृष्टवान् आसीत् एतत् इति समीपतरः अस्ति चेत् अयम् इति किञ्चित् दूरे अस्ति चेत् परन्तु अन्य एकं लघु सिद्धान्तकौमुदी हिन्दी अस्ति आसीत् तत्रापि व्याख्याने आसीत् अयम् इति समीपतरः अस्ति चेत् एषः इति दूरे अस्ति किञ्चित् गमः अस्ति अतः
अस्तु एतत् अतः महोदय किन्तु तत्र एषः अपि अयम् इति तत्र समीप अपि तत्र प्रत्यक्षः
प्रत्यक्ष आमां
प्रत्यक्षः इति चिन्तयितुं शक्नुमः खलु प्रत्यक्षः एषः अपि अयम् इति प्रयोगः भवति अपि अपरोक्षः अस्ति चेत् अथवा दूरे अस्ति चेत् तत्र
सः अन्यदपि अस्ति असौ इति
असौ किन्तु असौ इदानीं मास्तु केवलं सः इति चिन्तयामः
एषः अयं सः इति भवति एषः अयं सः एषः बालकः समीपे किञ्चित् अयं नेक्स्ट् अयम् अपि सः इति दूरे
दूरे अथवा अपरोक्षः अस्ति चेत्
अपरोक्षः अस्ति चेत्
अपि सः इति एव
सः अपि परोक्षं
तत्र अभ्यासपुस्तके तादृशं दत्तमस्ति भगिनि प्रयोगं कर्तुं
शक्नुमः वृक्षः इति
तत्र सर्वदा कुर्मः दूरे अस्ति शक्नुमः भगिनि किन्तु तत्र नियमः अस्ति किन्तु तत्र जनाः प्रयोगान् कुर्वन्ति अतः तत्र क्लेशः मास्तु किन्तु किञ्चित् भेदः अस्ति इति तत्र तादृशज्ञानं भवतु इति तावत्
नास्ति चेत् तत्र पाठयितुं न शक्नुमः सः वृक्षः इति वक्तुं
एषः अयं सः द्रष्टुं शक्यते
हा किन्तु अस्तु भगिनि एतत् चिन्तयामः एतदपि
सः वृक्षः सः बालकः इति
सत्यं भगिनि सत्यम् अभ्यासपुस्तके एतदेव अस्ति सत्यमेव किन्तु एतत् स्वीकुर्मः अतः तत्र अयम् अपि एषः बहु समीपे अस्ति चेत् अयम् एषः इति स्वीकुर्मः अपि किञ्चित् दूरे अस्ति चेत् अथवा दूरः अस्ति चेत् सः अपरोक्षः अस्ति तत्र अपरोक्षः न परोक्षः सः इति एव इति. अतः तत्र किञ्चित् भेदः अस्ति इदानीं, मास्तु किन्तु कः भेदः इति मास्तु, किन्तु मनसि किञ्चित् ओ अग्रे कुत्रापि द्रष्टव्यमस्ति, द्रष्टव्यः यः एषः भेदः कः इति पश्यामः यदि किमपि प्राप्नुमः वा. इदानीं तत्र
श्लोकेन
प्राप्तमस्ति एषः
बालमनोरमयां श्लोकः अस्ति महोदय तत्र, इदमस्तु सन्निकृष्टे समीपवर्ती चेतदौ रूपम् अधस्तु विप्रकृष्टे तदिति परोक्षे विजानीयादिति बालमनोरमा इति पुस्तके अस्ति. तदेव तदेव
अतः तत्र तत्र तु इदं सन्निकृष्टे एतत् शब्दः तस्मादपि समीपतरस्य इति भवान् उक्तवान्. अतः तत्र अयम् इति युक्ते किञ्चित् दूरः, एषः इत्युक्ते बहु समीपम्, अपि सः इत्युक्ते तत्र यत्र वयं न
दृष्टं
तत्र बाल मनोरमा तस्य आधारे
सिद्धान्तकौमुद्यः व्याख्यानम् अस्ति तत् भट्टोजि दीक्षिते रचितमस्ति, तस्मिन् एव अस्ति मनोरमा बालमनोरमा इति, बालमनोरमा इति तस्य शिष्यस्य व्याख्यानमस्ति सिद्धान्तकौमुद्याः.
किञ्चित् ईमेल् मध्ये प्रेषयतु.
आमामां तत्र महोदय लिखितवान्, अहं प्रेषयामि, किन्तु तस्य तस्मात् पूर्वम् एकवारं यदि तत्र विवरणं भवति चेत् सौलभ्यम् अस्ति इति कृत्वा अतः अहं पृष्टवान् भवान् एव किञ्चित् विवृणोतु इति. तत्र यदा ध्वनिमुद्रणं तस्य ईमेल् प्रेषयामि तत्र अहम् एतदपि स्थापयामि.
महोदय धन्यवादः.
अस्तु अस्तु तर्हि अग्रे गच्छामः. तर्हि नरेश् महोदय इदानीं तत्र भवान् अग्रे पठति वा तत्र तत्र इदं शब्दस्य रूपाणि दत्तानि सन्ति, तत्र एकवारं तत् पठित्वा तत्र अभ्यासस्य आरम्भम् अपि करोतु महोदय.
आं महोदय. इदं शब्दः त्रिलिङ्गरूपाणि इयम् इमे इमाः, इमाम् इमे इमाः, अनया आभ्याम् आभिः, अस्यै आभ्याम् आभ्यः, अस्याः आभ्याम् आभ्यः, अस्याः अनयोः आसाम्, अस्याम् अनयोः आसु. अभ्यासः. यथोदाहरणम् एतद् तद् शब्दयोः स्त्रीलिङ्गरूपैः रिक्तस्थानानि पूरयत. उदाहरणं तत् तस्यां ब्राह्म्यां स्थित्यां स्थितप्रज्ञः न मुह्यति.
तत्र तस्यां तस्याम् इति किमर्थं सप्तमी इति तत्र अस्ति?
सप्तमी ब्राह्म्यां सप्तमी तस्य विशेषः.
समीचीनं महोदय.
एतत् सात्विक्या बुद्ध्या युक्तः बन्धं मोक्षं च वेत्ति. सात्विक्या तृतीयविभक्तिः अस्ति. अनया सात्विक्या बुद्ध्या युक्तः बन्धं मोक्षं च वेत्ति.
हा समीचीनं महोदय. हा अग्रिमं
तत् तामस्या तामस्या धृत्या दुर्मेधाः मोहादिकं न विमुञ्चति. तामस्या तृतीया विभक्तिः अस्ति. अनया तामस्या धृत्या दुर्मेधाः मोहादिकं न विमुञ्चति.
न विमुञ्चन्ति विमुञ्चति. समीचीनं महोदय. समीचीनं
अत्र तया वा
तयापि तत्र समीचीनमेव भगिनी, किन्तु तत्र यद्यपि तत्र ते लिखितवन्तः तत्र एतद् अथवा तद् इति उपयोगं करोतु इति, किन्तु यदि तत्र नूतनपदम् अस्ति खलु इदानीम् इयम् इति अभ्यासार्थम् एतत् स्थापयामः, किन्तु तदपि समीचीनमेव भगिनि. हा सत्यमेव. हा अस्तु, अग्रे सूर्यकुमारी भगिनि.
महोदय, एतत् मायां भक्ताः तरन्ति.
न मायाम् इति अस्ति, मायाम् इति पदपरिचयं करोतु. मायाम् इति
माया दीर्घ एकारः आकारः श्रीलिङ्गस्य.
अस्तु, पदपरिचयं करोतु. मायाम् इति
माया ओ द्वितीय
मायाम् इति तत्र किं भवति, माया आकारान्त स्त्रीलिङ्ग मायाशब्दस्य
द्वितीय
एकवचनरूपं मायाम्. अतः
इमां
इमां मायां
भक्ताः तरन्ति.
इमां मायां भक्ताः तरन्ति. समीचीनं भगिनि, अग्रे.
मायया अपहृतघ्नाः आसुरं भावम् आश्रयन्ति. तत्
अनया मायया अपहृतज्ञानाः आसुरं
भावम् आश्रयन्ति.
तत्र पूर्वं तत्र युक्तः वेत्ति, युक्तः वेत्ति जानाति, मोक्षं जानाति, बन्धमपि जानाति. द्वितीयवाक्ये तत्र दुर्मेधाः तत्र विमुञ्चति इति तत्र प्रायशः तत्र दुर्मेधाः मोहादिकं विमुञ्चति, न विमुञ्चति मोहादिकं, तत्र तस्य उपरि तत्र बन्धनं तत्र विमोच्य मोह इत्यादिकात् बन्धनात् तत्र विमोचनं न प्राप्नुवन्ति न प्राप्नोति. इदानीं तृतीयवाक्ये तत्र भक्ताः तरन्ति इत्युक्ते तत्र नदी अस्ति, नदीं तरन्ति इति तादृशे तस्य तदस्ति तु तत् क्लेशः न करोति, तत्र क्लेशं न तत्र तस्य उपरि गन्तुं शक्नुवन्ति ते भक्ताः मायां तरन्ति. इदानीं तत्र
क्रास् कुर्वन्ति इत्यस्ति महोदय, तत्र नद्यां तरन्ति अपि अस्ति, परन्तु
नदीं तरन्ति इति अर्थः इदानीं
तीर्थ्वा गच्छति अत्र अतः नदीं.
सत्यं 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 महोदय. एकभागः अस्ति, तस्मात् अन्यः भागः यः अस्ति तत्र प्राप्नुवन्ति. अतः माया इति अस्ति तत्र तस्य उपरि तस्याः उपरि गन्तुं शक्नुवन्ति. इदानीं तत्र इदानीं यत् भवती पठितवती तत्र आश्रयन्ति अपहृतज्ञानाः आश्रयन्ति, अपहृतज्ञानाः इत्युक्ते अपहृतज्ञानः इति पदमस्ति, अपहृतज्ञानः
अपहृतज्ञानाः
ज्ञानाः इति बहुवचने एकवचने अपहृतज्ञानः. अपहृतज्ञानः इत्युक्ते यस्य ज्ञानं अपहृतं गतं
मायया अपहृतमस्ति.
मायया किं कृतवती माया तस्य ज्ञानस्य अपहरणं कृतवती. यस्य ज्ञानस्य अपहरणं माया कृतवती तस्य सः यः अस्ति यस्य ज्ञानस्य अपहरणं माया कृतवती सः आसुरं भावम् आश्रयति इति अपहृतज्ञानः. समीचीनम्, अग्रे भगिनि.
भगवतः सान्निध्येन प्रकृत्या जगत् सृज्यते इयं इयं प्रकृत्या
प्रकृत्या इति विभक्ति का तत्र
प्रकृत्या तृतीय
हा प्रकृतिः प्रकृत्या
अनया
अनया प्रकृत्या जगत् सृज्यते अनया प्रकृत्या जगत् सृज्यते केन भगवतः सान्निध्येन हा तत्र भगवतः सान्निध्यं यदि अस्ति तत्र सान्निध्यम् अस्ति चेत् तत्र अनया प्रकृत्या जगत् सृज्यते अतः
सृज्यते
प्रकृत्या जगत् सृज्यते तत्र कर्मणि रूपम् इति कर्मणि तृतीया इति
सृज्यते
जगत् सृज्यते कया सृज्यते प्रकृत्या सृज्यते प्रकृत्या सृज्यते इति समीचीनं भगिनि अस्तु अग्रिममपि करोतु
एतत् दैवी सम्पदा मोक्षः प्राप्यते एतत्
इदानीं तत्र किं प्राप्यते कः प्राप्यते
भगवान्
न न कः प्राप्यते
दैवीसम्पदाः
न तत्र प्राप्यते इति क्रियापदम् अस्ति खलु मोक्षः प्राप्यते मोक्षः प्राप्यते पुनः तत्र कर्मणि प्रयोगः एव तत्र
मोक्षः प्राप्यते दैवीसम्पदा
इदानीं तत्र दैवीसम्पदा इति विभक्ति का तत्र
देवस्य सम्पदा मोक्षः
सम्पद् इति सम्पदा इति पदं कीदृशपदम्
ओ सम्पत्
सम्पद् आपद् विपद् इति जानीमः खलु तथा तत्र सम्पद् सम्पदा दैवी सम्पदा अनया दैवी सम्पदा
सम्पदा मोक्षः प्राप्यते
समीचीनं भगिनि एकवचनमेव समीचीनम् अस्तु अग्रे गीताञ्जलि भगिनि
एतत् राजविद्यया स्त्रियः अपि मोक्षं प्राप्तुं शक्नुवन्ति राजविद्यया तु तृतीया अस्ति अथवा एतत्तु एतया अपि च अनया
हा एतया अथवा अनया तत्र राज्यविद्यया इति तृतीया रूप तृतीयविभक्तिरूपम् अस्ति प्रथमविभक्तिरूपं किम् अस्ति
राजविद्या
हा राजविद्या राजविद्या या अस्ति तया विद्यया राजविद्यया अथवा एतया एषा राजविद्या अस्ति एतया राजविद्यया स्त्रियः अपि मोक्षं प्राप्तुं
शक्नुवन्ति
समीचीनम् अग्रे स्त्रियौ स्त्रियः महिला इति किन्तु किन्तु तत्र स्त्री इति प्रायशः तत्र नदी शब्दवत् इति अथवा तत्र विशेषपदं वा इति न जानामि न स्मरामि कोऽपि जानाति वा स्त्री इति विशेषपदं वा ईकारान्तस्त्रीलिङ्गपदम् इति तु सत्यं किन्तु तत्र विशेषपदं वा साधारणपदं वा न जानामि भगिनि
महोदय अत्र दत्तं महोदय ईक दीर्घ ईकारान्त स्त्रीलिङ्गः स्त्री शब्दः विशेष एकं दत्तं महोदय
इति किन्तु तत्र भेदः कुत्र अस्ति तत्र नदीशब्दः अस्ति स्त्रीशब्दः
द्वितीयरूपं नदीम् अस्ति स्त्रीम् अस्ति अपि च एकम् अन्यरूपम् अस्ति स्त्रियम्
स्त्रियम् इति अस्ति
द्वितीयविभक्त्यौ.
अस्तु अस्तु भगिनि, अतः विशेषपदं विशेषपदम् अस्ति. अस्तु,
अपि च द्वितीय बहुवचन अपि एकं विकल्पेन स्त्रियः
इति. अस्तु, हा, वयं जानीमः द्वितीया बहुवचने नदीशब्दस्य नदीः इति एव अस्ति.
हा, स्त्रीः अपि भवितुम् अर्हति, किन्तु स्त्रियः अपि च स्त्रियं प्रथमस्त्रियं एकवचन स्त्रियं बहुवचन स्त्रियः.
अस्तु अस्तु, समीचीनम्. अस्तु, विशेषपदम् अस्ति. अस्तु, अग्रे गच्छामः भगिनि.
तत् युद्धवार्तां श्रुत्वा धृतराष्ट्रः कुतूहली अभवत्. युद्धवार्तां तु द्वितीय विभक्ति एकवचन अस्ति. इमां युद्धवार्तां श्रुत्वा धृतराष्ट्रः कुतूहली अभवत्.
हा, तत्र कुतूहली इति
ईकारान्त
ईकारान्त नास्ति खलु. तत्र कुतूहली इति कः कुतूहली अभवत्?
कुतूहली
तत्र कः अभवत्? धृतराष्ट्रः अभवत् इति अस्ति खलु.
धृतराष्ट्रः अभवत्. धृतराष्ट्र
अभवत् इति तु तत्र अकर्मकक्रियापदं खलु. अतः तत्र कुतूहली इत्युक्ते धृतराष्ट्रः. धृतराष्ट्रः कुतूहली अभवत् इत्युक्ते विशेषणम्.
ओ, कुतूहली कीदृशपदं?
कुतूहलीन् यस्य अथवा यस्मिन् कुतूहलः अस्ति सः कुतूहली इति.
गुणिन्
गुणिन् शब्दवत् तावदेव सत्यं.
तद्धितान्तपदं
तत्र कुतूहली. यस्य अथवा यस्मिन् कुतूहलः अस्ति सः कुतूहली. कुतूहली कुतूहलिनौ कुतूहलिनः. अतः कुतूहली अभवत् सः. अस्तु, तर्हि तत्र तत्रैव स्थगयामः. अतः तत्र अस्तु, तत्र अन्ते लक्ष्मी भगिनी भवती एव तत्र शान्तिमन्त्रं वदति
वा? अस्तु महोदय. सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. धन्यवादः महोदय.
धन्यवादः भगिनि.
धन्यवादः
रघुपति महोदय.